न भूमिर्न तोयम् न तेजो न वायु न कमेन्द्रियं वा न तेषां समूह अनेकान्तिकत्वात् सुषुप्तेकसिद्ध तदेको वशिष्ठ शिव केवलोऽहम् वर्णाश्रमाचार धर्म न मे धारणा ध्यान योगादयोऽपि अनात्मा स्वयाहं ममाध्यासमान तदेको वशिष्ठ शिव केवलोऽहम् माता पिता वा न देवा न लोका वेदानयज्ञानतीर्थं ब्रुवन्ति सुषुप्तो निरस्तातिशून्यात्मकत्वात् तदेको वशिष्ठ शिव केवलोऽहम् न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं न जैनं न मीमांसकादे शिव केवलोऽहम् न चोध्वं न चादो न चान्त न बाह्यं न मध्यं न तिर्यं न पूर्वापराधि यद्व्यापकत्वादखण्डैकरूप तदेको वशिष्ठ शिव केवलोऽहम् शुक्लं न कृष्णं न रक्तं न पीतं न कुब्जं न पीडं न ह्रस्वं न दीर्घम् अरूपं तथा ज्योतिराकारतत्वात् तदेको वशिष्ठ शिव केवलोऽहम् न शाश्वतं शिष्यो न शिष्या न च त्वं न चाहं न चायं प्रपञ्च स्वरूपावबोधो विकल्पा सहिष्णु तदेको वशिष्ठ शिवाख्ये